ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। श्री शुक उवाच। अथ ब्रह्मात्मजैर्देवैः प्रदेशैरावृतोऽभ्यगात्। भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः। इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ। ऋभवोऽङ्गिरसो रुद्रा विश्वेसाध्याश्च देवताः। गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः। ऋषयः पितरश्चैव सविद्याधरकिन्नराः। द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः। वपुषा येन भगवान् नरलोकमनोरमः। यशो वितेने लोकेषु सर्वलोकमलापहम्। तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः। विचक्षता वितृप्ताक्षाः कृष्णमद्भुतदर्शनम्। स्वर्गोद्यानोपगैर्माल्यैश्चादयन्तो यदूत्तमम्। गीर्भिश्चित्रपदार्थाभिस्तुष्टुभुर्जगदीश्वरम्। देवा ऊचुः नतास्मतेनाथ पदारविन्दम् बुद्धीन्द्रियप्राणमनोवचोभिः। यच्चिन्त्यतेऽन्तर्हृतिभावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात्। त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यम् व्यक्तम् सृजस्य वसि लुम्पसि तद्गुणस्थः। नैतैर्भवानजितकर्मभिरज्यते वै यत्स्वे सुखे व्यवहितेऽभिरतो नवद्यः। शुद्धिर्नृणाम् न तु तथेड्य दुराशयानाम् विद्याश्रुताध्ययनदानतपः क्रियाभिः। सत्त्वात्मनाम् ऋषभते यशसि प्रवृद्ध सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात्। स्यान्नष्टवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः। यः सात्वतैः समविभूतयात्मवद्भिर्व्यूहेऽर्चितः स वनसः स्वरतिक्रमाय। यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्यानिरुक्तविधिनेशः विर्गृहीत्वा अध्यात्मयोगौ तयोगिभिरात्ममायाम् जिज्ञासुभिः परमभागवतैः परीष्टः। पर्युष्टया तव विभो वनमालयेयम् संस्पर्धिनी भगवती प्रतिपत्नीवच्छ्रीः। यः सुप्रणीतममुयार्हणमाददन्नो भूयात्सदाङ्घ्रिरशुभाशय धूमकेतुः। केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरो सुरदेवचम्भोः। स्वर्गाय साधुषु खलेष्वितराय भूमन् पादः पुनः तु भगवन् भजतामघम् नः। न स्योतगाव इव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः। कालस्य ते प्रकृतिपूरुषयो परस्य शम्नस्तनोतु चरणः पुरुषोत्तमस्य। अस्यासि हेतुर्दयस्थितिसंयमाना मव्यक्तजीवमहतामपि कालमाहुः। सोऽयम् त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम्। त्वत्तः पुमान् समधिगम्य यया स्ववीर्यम् धत्ते महान्तमिव गर्भममोघवीर्यः। सोऽयम् तयानुगतात्मनाण्डकोशम् हैमम् ससर्ज बहिरारमणैरुपेतम्। तत्तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान्। अर्थाञ्जुषन्नपि ऋषीकपतेन लिप्तो येन्ये स्वतः परिहृतादपि बिभ्यति स्म। स्मायावलोकलवदर्शितभावहारी भ्रूमण्डलप्रहितसौरतमन्त्रसौण्डैः। पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर्यस्येन्द्रियम् विमथितुम् कर्णैर्न विभ्यः। विभ्यस्तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानिहन्तुम्। आनुश्रवम् श्रुतिभिरङ्गृजमङ्गसङ्गैस्तीर्थद्वयम् श्रुतिषदस्त उपस्पृशन्ति। बादरायणिरुवाच। इत्यभिष्टूय विभुतैः शेषः शतधृतिर्हरिम् अभ्यभाषत गोविन्दम् प्रणम्याम्बरमाश्रितः। ब्रह्मोवाच। भूमेर्भारावताराय पुरा विज्ञापितः प्रभो त्वमस्माभिरशेषात्मंस्तत्तथैवोपपादितम्। धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया। कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापः। अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम्। कर्माण्युद्दामवृत्तानि हिताय जगतो ग्रथाः यानि ते चरितानि स मनुष्या साधवः कलौ शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो नाधुना तेऽखिलाधार देवकार्यावशेषितं कुलं च विप्रशापेन नष्टप्रायमभूदिदम् तत स्वधाम परमं विशस्व यदि मन्यसे सलोकान् लोकपालान्नः पाहि वैकुण्ठ किङ्करान्। श्रीभगवानुवाच अवधारितमे तन्मे यदाथ विबुधेश्वर कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतं लोकं जिघृक्षत् रुद्धं मे वेलयेव महार्णवः यद्यसंहत्य दृप्तानां यदूनां विपुलं कुलं गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्षति। इदानीं नाशारब्धः कुलस्य द्विजशापतः यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ। श्रीशुक उवाच इत्युक्तो लोकनाथेन स्वयंभूः प्रणिपत्यतं सह देवगणैर्देवः स्वधाम समपद्यत। अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् विलोक्य भगवानाः यदुवृद्धान् समागतान्। श्रीभगवानुवाच एते वै सुमहोत्पाता व्युत्तिष्ठन्ति सर्वतः शापश्च नः कुलस्यासीत् ब्राह्मणेभ्यो दुरत्ययः न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैवमाचिरम् यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणो डुरात् विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् भोजयित्वोषिजो विप्रान् नानागुणवतान्धसा तेषु दानानि पात्रेषु श्रद्धयोक्त्वा महान्ति वै वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम्। श्रीशुक उवाच एवं भगवता दिष्टा यादवाः कुलनन्दन गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयुयुजन् तन्निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितं दृष्ट्वा रिष्टानि घोराणि नित्यं कृष्णमनुव्रतः विविक्त उपसङ्गम्य जगतामीश्वरेश्वरं प्रणम्य शिरसा पादौ प्राञ्जलिस्तमभाषत। उद्धव उवाच देवदेवेश योगेश पुण्यश्रवणकीर्तन समृद्ध्यै तत्कुलं नूनं लोकं सन्त्यक्षते भवान् विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि तव विक्रीडितं कृष्ण नृणां परममङ्गलं कर्णपीयूषमास्वाद्य त्यजन्त्यन्यस्पृहां जनः शय्यासनाटनस्थान स्नानक्रीडासनादिषु कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः उच्छिष्टभोजिनो दासास्तव मायां जयेमहि वातरसनाय ऋषयः श्रमणा ऊर्ध्वमन्थिनः ब्रह्माख्यं धामते यान्ति शान्ताः सन्न्यासिनो मलाः वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च गद्युत्स्मिते क्षणक्ष्वेली यन्द्रिलोकविडम्बनम्। श्रीशुक उवाच एवं विज्ञापितो राजन् भगवान् देवकीसुतः एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।